एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राजनीतिक दलानां मध्ये जनसम्बद्ध विषयै सह संयोजितानि विधेयकानि प्राथमिकतायाः आधारेण सदने प्रस्तोतुम् सहमतिर्धृता वर्तते। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन राजनीतिक दलानां प्रमुख सचेतक पदीयैः मुख्य सचिवेन विधिमन्त्रिणा विधि सचिवेन च सह ह्यो विहिते विमर्शने प्राथमिकतायाः आधारेण विधेयकानि प्रस्तोतुम् सहमतिरियम् धृतास्ति। बालुवा तारावर्तिनी प्रधानमन्त्री निवासे विहिते तस्मिन् विमर्शने जनतया सह प्रत्यक्ष रूपेण योजितेषु विकास सुशासन संक्रमण कालिक न्याय शिक्षा स्वास्थ्य नागरिकता प्रवृत्ति विषयेषु निर्मितानि विधेयकानि संसदि प्रस्तोतुम् सहमतिर्धृतेति प्रधानमन्त्रिणः संचार विज्ञ मनहरी तिमल सिन्हा अज्ञापयत। पूर्ववर्ती प्रतिनिधि सभायाः कार्यकालस्य समाप्तिमनु सप्तविंशतिः विधेयकानि निष्क्रियाणि सम्भूतानि आसन्। एवमेव द्वादश विधेयकानि स्वयं सर्वकारेण प्रतिगृहीतानि आसन्। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिधस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलीनश्च मध्ये राष्ट्रिय सुरक्षा सीमा सुरक्षा प्रवृत्ति विषयेषु विमृष्टम् वर्तते। प्रधानमन्त्री मन्त्री परिषदः कार्यालये गतदिने आयोजिते विमर्शने गृह रक्षा परराष्ट्र मन्त्रालयानां सचिवाः नेपाली सेना नेपाल प्रहरी सशस्त्र प्रहरी बलस्य प्रमुख राष्ट्रियानुसन्धान विभागस्य प्रमुखश्च सहभागिनः आसन्। राष्ट्रिय सभायाः गतदिवसीयो उपवेशेन पृथक् पृथक् त्रीणि विधेयकानि पारितीकृतानि सन्ति। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा प्रस्तुतम् विधायन व्यवस्थापन समितेः प्रतिवेदनेन सहितम् षट्सप्तत्यधिक द्विसहस्रतम वैक्रमाब्दम् अनुगमन मूल्यांकन विधेयकम् उपवेशेन सर्वसम्मत्या पारितीकृतम् वर्तते। संस्कृति पर्यटन नारीकोड्डयन मन्त्रिणः सुदन किराती इत्यस्य पक्षतः संचार मन्त्रिणा शर्मणा प्रस्तुतम् विधायन व्यवस्थापन समितेः प्रतिवेदनेन सहितम् सप्तसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीयम् अभिलेख संरक्षण प्रथम संशोधन विधेयकम् उपवेशेन सर्वसम्मत्या पारितीकृतम्। एवमेव कृषि पशुपक्षी विकास मन्त्रिणा ज्वाला कुमारी साहेन प्रस्तुतम् विधायन व्यवस्थापन समितेः प्रतिवेदनेन सहितम् सप्तसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीयम् खाद्य स्वच्छता गुणस्तर विधेयकम् च उपवेशेन सर्वसम्मत्या पारितीकृतम् वर्तते। राष्ट्रिय सभायाः उपाध्यक्ष नेकपा माओवादी केन्द्रस्य उर्मिला अरियालः निर्विरोधम् निर्वाचिता वर्तते। उपाध्यक्ष पदाय केवलम् एतस्या एव प्रत्याशिता प्रस्तुतेति निगद्य राष्ट्रिय सभायाः गतदिवसीयोपवेशे अध्यक्ष गणेश प्रसाद तिमल सिन्हा अरियालः निर्विरोधम् निर्वाचितेति उदघोषयत। उपप्रधान भौतिक पूर्वाधार यातायात मन्त्रिणा नारायण काजी श्रेष्ठेन राष्ट्रिय सभायाः उपाध्यक्ष पदे राष्ट्रिय सभायाः सदस्य उर्मिला अरियालः निर्वाचितव्येति प्रस्तावः प्रस्तुतः आसीत्। राष्ट्रपतेः विद्यादेवी भण्डारी निगदति राष्ट्रस्य समृद्धये देशस्य आत्मनिर्भरतायाः सम्पादनम् आवश्यकम् वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजितायाम् काष्ठमण्डपोपत्यकायाः महानगरपालिकयोः नगरपालिकानाम् ग्रामपालिकानाम् च प्रमुखोपप्रमुखैः अध्यक्षोपाध्यक्षैश्च सह अन्तरक्रियायाम् राष्ट्रपतिः भण्डारी राष्ट्रस्य समृद्धये शिक्षा स्वास्थ्य क्षेत्रयोः विकासेन सहैव पर्यटन कृषि क्षेत्रे विशेष प्राथमिकतायाम् संस्थाप्य कार्यम् कर्तुम् स्थानीय स्तरान् आह्वयत। राष्ट्रपतिः भण्डारी अवोचत राष्ट्रस्य वर्धमानाम् व्यापार हानिम् न्यूनीकर्तुम् वैद्युत यातायात साधनानाम् प्रयोगाय प्रतिगृहम् वैद्युत चुल्लिकानाम् प्रयोगाय च स्थानीय स्तरैः विशेष प्रयासो विधातव्य। राष्ट्रपतिः भण्डारी अवासत स्थानीय स्तरेषु स्थानीय न्यायिक समितीनाम् माध्यमेन विवाद समाधानस्य कार्यम् प्रभावकारी दृष्टम् इत्यतः स्थानीय न्यायिक समितयः अतिरिक्त दक्षः क्षमावत्यश्च विधातव्यः। अन्तरक्रिया कार्यक्रमे काष्ठमण्डपोपत्यकायाः पालिकानाम् प्रमुखोपप्रमुखाः काष्ठमण्डपोपत्यकायाम् अपि कतिपय स्थानानि अत्यन्तं दुर्गमाणि सन्ति इत्यतः एतेषां विकासाय केन्द्र सर्वकारेण एतादृश पालिकाभ्यः विशेष वित्तस्य व्यवस्थापनं विधेयमिति अभ्याचन्त। कार्यक्रमे ललितपुर महानगरपालिकायाः प्रमुख चिरीबाबु महर्जन अगदत् विकास निर्माणस्य विषयेषु स्तरत्रयमेव मिलित्वा अग्रे वर्धितं सद् प्रभावकारी भविष्यति। काष्ठमण्डप महानगरपालिकायाः उपप्रमुख सुनीता डंगोलः जनाभि रुचेः सबल विकासस्य च विषयान् आत्मभिः विशेष प्राथमिकतायां संस्थाप्य कार्यं विद्यमानम् अस्तीति सूचितवती। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः गदति सर्वकारीय अधिवक्तृभिः प्रदीयमाना सेवा अतिरिक्त प्रभावकारिणी विधेया। महान्यायाधिवक्तृ कार्यालयस्य ह्य अवलोकनस्य निरीक्षणस्य च क्रमे प्रधानमन्त्री प्रचण्डः अगदत् व्यावसायिकरूपेण सर्वकारीयाधिवक्तृणां सेवा प्रभावकारिणी सक्षमा च विधातव्या। प्रधानमन्त्री दाहाल सर्वकारीयाधिवक्तृणां कृते पृथगेव पारिश्रमिक सेवा सम्बद्धस्य विधेः निर्माणाय प्रतिबद्धताम् अव्यज्यमानः। प्रधानमन्त्री कार्यालये सर्वकारीयाधिवक्तुः शाखायाः स्थापनायाः विषयः उच्च प्राथमिकतायां स्थापितोऽस्तीति अगदत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा वदति प्राथमिकतायाः आधारेण संचार सम्बद्ध विधेये मूर्त रूपं प्रदीयते। नेपाल पत्रकार महासंघेन ह्य संचार ग्रामे आयोजिते वर्धापन शुभकामना ज्ञापन कार्यक्रमे मन्त्री शर्मा प्रविधि विकासेन सह संचार क्षेत्रस्य नियमनम् आवश्यकम् अस्ति इति अवोचत। असौ संचार क्षेत्रे विधातव्यस्य नीतिगत सुधारस्य विषये यथा सम्भवं शीघ्रं परामर्श प्रस्तुत्यै सम्बद्ध संस्था अन्वरुणत। नेपाल पत्रकार महासंघस्य अध्यक्ष विपुल पोखरेल संसदि विमृष्टाय प्रक्रियायाम् विद्यमानाय च संचार सम्बद्ध विधेये पूर्णता प्रदानार्थं मन्त्रिणं शर्माणम् अन्वरुणत। संचार सूचना प्रविधि मन्त्रालयस्य सचिव डाक्टर वैकुण्ठ अरियाल महासंघेन उत्थापितेषु विषयेषु गभीरं ध्यानाकर्षणं जातमिति ब्रुवन् संचार प्रतिष्ठानस्य स्थापनाया सम्बन्धे विभिन्नेषु चरणेषु विमृश्यमानम् अस्ति इति अज्ञापयत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला कथयति कांग्रेस दलम सर्वकारे सहभागी न भविष्यति। ह्य चितवन जनपदे पत्रकारैः सह भाषमाणः नेता डाक्टर कोइराला राष्ट्रपति पदे कांग्रेस दलस्य प्रत्याशी भविष्यति परं कांग्रेस दलम अधुनैव सर्वकारे सहभागी न भवतीति स्पष्टीकृतवान्। राष्ट्रपति निर्वाचने राष्ट्रिय सहमत्यै प्रयास विधास्यते इति च असौ अगदत्। सर्वकारेण कोरोना विषाणो प्रतिरोधिनः टीकाकरणस्य अतिरिक्त मात्रा आगामी फाल्गुन मासस्य प्रथम सप्ताहस्य अभ्यन्तरे नेपालं प्राप्स्यति इति ज्ञापितं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य स्वास्थ्य सेवा विभागस्य परिवार कल्याण महाशाखायाः बाल स्वास्थ्य टीकाकरण शाखायाः प्रमुखः सागर दाहाल फाल्गुनस्य अष्टम दिवसस्य अभ्यन्तरे टीकाकरणं नेपालं प्राप्स्यति इति ज्ञापितवान्। प्रतिवेशी राष्ट्रयोः चीन भारतयोः कोरोना विषाणोः संक्रमणस्य प्रसरणानन्तरं सर्वकारेण गावि संस्थातः 30 लक्षाणि टीकाकरणस्य मात्राः अभियाचिताः वर्तन्ते। एतेषु प्रथमचरणे 15 लक्षाणि टीकाकरणस्य मात्राः आनेष्यमाणाः सन्ति इति प्रमुख दाहालः असूचयत। प्रतिवेशी भारत चीन राष्ट्रयोः BF7 नाम्न्यः प्रजातेः नूतन प्रकारस्य प्रसरणस्य अनन्तरं मन्त्रालयेन अतिरिक्त मात्रायाः आदानाय अवशिष्टा सर्वे जनाः टीकाकरणम् आधातुम् अनुरुद्धाः सन्ति इति समाचाराः।